अथ श्रीमद्भगवद्गीता द्वादशोऽध्यायः अर्जुन उवाच एवं सतत्युक्ता ये भक्तास्त्वां पर्युपासते ये चाप्यक्षरम् अव्यक्तं तेषां के योगवित्तमः। श्रीभगवान् उवाच मय्यावेश्मनो ये मां नित्ययुक्ता उपासते श्रद्धया पर्योपेतास्ते मे युक्ततमामताः ये त्वक्षरम् अनिर्देश्यम् अव्यक्तम् पर्युपासते सर्वत्र गमचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् संयमेन्द्रियग्रामम् सर्वत्र सम्बुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतिते रताः क्लेशो अधिकतरस्तेषाम् अव्यक्तासक्त चेतसाम् अव्यक्ता हि गतेर्दुःखम् देहवद्भिरवाप्यते ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येनैव योगेन मां ध्यायन्तुपासते तेषामहं समुद्धता मृत्यु संसार सागरात् भवामि न चिरात् पार्थ मय्यावेशिच्चेतसाम् मय्येव मनाधत्स्व मयि बुद्धिं निवेशय निवस्यसि मय्येव अतूर्ध्वं न संशयः अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो माम् इच्छाप्तुं धनञ्जय अभ्यास्यप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि अथैतदपि शक्तोऽसि कर्तुं मृत्युगम् आश्रितः सर्वकरफलत्यागम् तथा कुरु यतात्मवान् श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानम् विशिष्यते ध्यानात् करफलत्यागस्त्यागात् शान्तेरनन्तरम् अद्वेष्टा सर्वभूतानां मैत्रा करुणैव च निर्ममो निरङ्कारः समदुःखसुखक्षमी सन्तुष्टः सततं योगी यदात्मा दृढनिश्चयः मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्षभयोद्वेगैर्मुक्तो यः च स मे प्रियः अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः यो न हृष्यति न द्वेष्टि न सोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान्या स मे प्रियः समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् अनिकेता स्थिर्मतिर्भक्तिमान् मे प्रियो नरः ये तु धर्म्यामृतम् मिदम् यथोक्तम् पर्युपासते श्रद्धानामत्पर्म भक्तास्ते अतीव मे प्रियाः। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे भक्तियोगो नाम द्वादशोऽध्यायः।